ओंकार वेद्या पुरुष पुराणो बुद्धेश्च साक्षी निखिलस्य जिन्तो यो वेत्ति सर्वं न च यस्य वेत्ता यो वेत्ति सर्वं न च यस्य वेत्ता परात्मरूपो भुवि रामकृष्ण। मोक्षस्वरूपं तव धाम नित्यं यथा तदाप्नोति विशुद्धचित्ता तथोपदेष्टाखिलतत्त्ववेत्ता तथोपदेष्टाखिलतत्त्ववेत्ता त्वं विश्वधाता भुवि रामकृष्ण। तेजोमयं दर्शयसि स्वरूपं कोशान्तरस्थं परमार्थतत्त्वं संस्पर्शमात्रेण नृणां समाधिं संस्पर्शमात्रेण नृणां समाधिं विधाय सद्यो भुवि रामकृष्ण। रागादिशून्यां तव सौम्यमूर्तिं दृष्ट्वा पुनश्चात्र न जन्म भाज स्थाने यदादाय विशुद्धचित्तं स्थाने यदादाय विशुद्धसत्त्वम् इहावतीर्णो भुवि रामकृष्ण। नाकादिलोकं सुखदं च दिव्यं सुरम्यमैश्वर्यमाहं नयाचे हृदासने त्वं कृपया सदा वै हृदासने त्वं कृपया सदा वै वसेति याचे भुवि रामकृष्ण। यं ब्रह्मा विष्णु गिरिशश्च देवाः ध्यायन्ति गायन्ति नामन्ति नित्यं तै प्रार्थितस्तस्य परावतारो तैः प्रार्थितस्तस्य परावतारो द्विबाहुधारी भुवि रामकृष्ण। वन्दे जगद्बीजमाखण्डमेकं वन्दे सुरैः सेवितपादपीठं వందే భవేశం భవరోగ వైద్యం వందే భవేశం భవరోగ వైద్యం తమేవ వందే భువి రామకృష్ణం తమేవ వందే భువి రామకృష్ణం తమేవ వందే భువి రామకృష్ణం.